ओम नमो भगवते वासुदेवाय। अथ पञ्चविंशोऽध्यायः। श्रीशुक उवाच। इन्द्रस्तदात्मनः पूजाम् विज्ञाय विहताम् नृप गोपेभ्यः कृष्णनाथेभ्यो नन्दादिभ्यश्चुकोपसः गणम् सांवर्तकम् नाम मेघानाम् चान्तकारिणाम्। इन्द्रः प्राचोदयत् क्रुद्धो वाक्यम् चाहेशमान्युत अहो श्रीमदमाहात्म्यम् गोपानाम् काननौकसाम्। कृष्णम् मर्त्यमुपाश्रित्य ये चक्रुर्देवहेलनम् यथा दृढैः कर्ममयैः क्रतुभिर्नाम नौनिभैः विद्यामान् वीक्षिकीम् हित्वा तितीर्षन्ति भवार्णवम् वाचालम् बालिशम् स्तब्धमज्ञम् पण्डितमानिनम्। कृष्णम् मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् येषाम् श्रियावलिप्तानाम् कृष्णेनाध्मायितात्मनाम् धुनुत श्रीमदस्तम्भम् पशून्नयत संक्षयम् अहम् चैरावतम् नागमारुह्यानुव्रजे व्रजम् मरुद्गणैर्महावीर्यैर्नन्दगोष्ठजिघांसया। श्रीशुक उवाच। इत्थम् मघवता ज्ञप्ता मेघानिर्मुक्तबन्धनाः नन्दगोकुलमासारैः पीडयामासुरोजसा विद्योतमाना विद्युद्भिः स्तनन्तः स्तनयत्नुभिः तीव्रैर्मरुद्गणैर्नुन्ना ववृषुर्जलशर्कराः स्थूणा स्थूला वर्षधारा मुञ्चत्स्वभ्रेष्वभीक्ष्णशः जलौघैः प्लाव्यमाना भूर्नादृश्यत नतोन्नतम् अत्यासारातिवातेन पशवो जातवेपनाः गोपा गोप्यश्च सीतार्ता गोविन्दम् शरणम् ययुः शिरः सुतांश्च कायेन प्रच्छाद्यासारपीडिताः वेपमाना भगवतः पादमूलमुपाययुः कृष्णकृष्णमहाभाग त्वन्नाथम् गोकुलम् प्रभो त्रातुमर्हसि देवान्नः कुपिताद्भक्तवत्सल शिलावर्षनिपातेन हन्यमानमचेतनम् निरीक्ष्य भगवान् मेने कुपितेन्द्रकृतम् हरिः अपर्त्वत्युल्बणम् वर्षमतिवातम् शिलामयम् स्वयागे विहते स्माभिरिन्द्रो नाशाय वर्षति तत्र प्रतिविधिम् सम्यगात्मयोगेन साधये लोकेशमानिनाम् मौढ्याद्धरिष्ये श्रीमदम् तमः न हि सद्भावयुक्तानाम् सुराणामीश विस्मयः मत्तो सताम् मानभङ्गः प्रशमायोपकल्पते तस्मान्मच्छरणम् गोष्ठम् मन्नाथम् मत्परिग्रहम् गोपाये स्वात्मयोगेन सोऽयम् मे व्रत आहितः इत्युक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् दधारलीलया कृष्णश्छत्राकमिव बालकः। अथाह भगवान् गोपान् हेम्बतात व्रजौकसः यथोपजोषम् विशत गिरिगर्तम् सगोधनाः नत्रास इह वः कार्यो मध्यस्ताद्रिनिपातने वातवर्षभयेनालम् तत्राणम् विहितम् हि वः तथा निर्विविशुर्गर्तम् कृष्णाश्वासितमानसाः यथावकाशम् सधनाः सव्रजासोपजीविनः क्षुत्रिड्व्यथाम् सुखापेक्षाम् हित्वा तैर्व्रजवासिभिः वीक्षमाणो दधावद्रिम् सप्ताहम् नाचरत्पदात् कृष्णयोगानुभावम् तम् निशाम्येन्द्रोऽतिविस्मितः निस्तम्भो भ्रष्टसङ्कल्पः स्वान्मेघान् सन्न्यवारयत् खम् व्यभ्रमुदितादित्यम् वातवर्षम् च दारुणम् निशाम्योपरतम् गोपान् गोवर्धनधरोऽब्रवीत् निर्यातत्यज तत्रासम् गोपासस्त्रीधनार्भकाः उपारतम् वातवर्षम् युधप्रायाश्च निम्नगाः ततस्ते निर्ययुर्गोपाः स्वम् स्वमादाय गोधनम् शकटोढोपकरणम् स्त्रीबालस्थविराशनैः भगवानपि तम् शैलम् स्वस्थाने पूर्ववत्प्रभुः पश्यताम् सर्वभूतानाम् स्थापयामास लीलया तम् प्रेमवेगान्निभृता व्रजौकसो यथा समीयुः परिरम्भणादिभिः गोप्यश्च सस्नेहमपूजयन्मुदा दध्यक्षताद्भिर्युयुजुः सदाशिषः यशोदारोहिणी नन्दो रामश्च बलिनाम् वरः कृष्णमालिङ्ग्य युयुजुराशिषः स्नेहकातराः दिवि देवगणाः साध्या सिद्धगन्धर्वचारणाः तुष्टुवुर्मुमुचुस्तुष्टाः पुष्पवर्षाणि पार्थिव शङ्खदुन्दुभयो नेदुर्दिवि देव प्रणोदिताः जगुर्गन्धर्वपतयस्तुम्बुरप्रमुखा नृप ततोऽनुरक्तैः पशुपैः परिश्रितो राजन् सगोष्ठम् सबलो व्रजद्धरिः तथा विधान्यस्य कृतानि गोपिका गायन्त्य ईयुर्मुदिता हृदि स्पृशः। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम संहितायाम दशमस्कंधे पूर्वार्धे पञ्चविंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।